निषिद्धैरप्येभिर्लुलितमकरन्दो मधुकरैः करैरिन्दोरन्तश्चुरितैव सम्भिन्नमुकुलः विधत्तां सिद्धिं नो नयनसुभगामस्य सदसः प्रकीर्णपुष्पाणां हरिचरणयोरञ्जलिरयम्। चतुर्विंशतितमः श्लोकः। कृतम् अनुमतं दृष्टं वा यैरिदं गुरुपातकं मनुजपशुभिः निर्मर्यादैः भवद्भिः उदायुधैः नरकरिपुना सार्धं तेषां स भीमकिरीटिनाम् अयम् अहम् असृङ्मेधो मांसैः करोमि दिशां बलिम्। इतः पूर्वम् अश्वत्थामा सर्वान् पाण्डवान् सम्बुध्य अर्जुन सात्यके वृको भीम कृष्ण इति सर्वान् सम्बुध्य पृच्छति एवं तादृशस्य द्विजन्मनः ब्राह्मणस्य वृद्धस्य मम पितुः उत्तमाङ्गं स्पृष्टम् आसीत् भवन्तः सर्वे उपेक्षितवन्तः इति युक्तं किम् इति। अथवा सर्वे एव एते पातकिनः सर्वे अपि पापकारिणः एव। कारणं यत्किमपि पापकार्यं क्रियते चेत् न केवलं यः तत् पापं कर्म करोति स एव पापी न, यः एतादृशं पापं कर्म कर्तुं प्रेरयति सः अपि पापी एव। अनन्तरं यः अनुमोदते हि अङ्गीकरोति एतादृशं पापं पापकार्यं युक्तमिति अनुमोदन्ते ते अपि पातकिनः एव। अत एव यदा द्रौपद्याः वस्त्र अपहरणम् आसीत् कार्यं तु दुःशासनेन कृतं किन्तु सः मात्रं पापी इति न, एतत् प्रेरितम् अस्ति दुर्योधनेन शकुनिना च, अतः द्वौ अपि पापिनौ एव। एतत् द्रौपद्याः वस्त्र अपकारणम् अनुमोदितम् अस्ति कर्णेन, अतः कर्णः एवं दुःशासनः दुर्योधनः शकुनिः कर्णः चत्वारः अपि पापिनः इति उच्यते। तदेव अस्मिन् अपि श्लोके यैः कृतम् अनुमतं दृष्टं वा इति, अतः यैः पापं कृतं किञ्चित् भिन्नरीत्या अस्मिन् श्लोके उच्यते। यैः राजभिः नो चेत् यैः पाण्डवैः इदं गुरुपातकम् एतादृशं गुरुपातकं मम महत् पापकार्यम् इति अर्थः, महत् पापकार्यं कृतं यैः कृतम् अनुमतम् अथवा अनुमतिः दत्ता एतादृशं पापकार्यं कर्तुम् अनुमतिः यैः दत्ता यैः दृष्टम् एतादृशं पापकार्यं यैः दृष्टम् आसीत्। अन्यानि तृतीयाविभक्ति बहुवचनान्तानि पदानि यैः इति पदस्य विशेषणानि भवन्ति। मनुजपशुभिः निर्मर्यादैः उदायुधैः भवद्भिः इति। मनुजपशुभिः नाम मनुष्यरूपेण सञ्चरद्भिः पशुभिः मृगैः इति अर्थः। मनुजेषु पशवः तैः इत्यपि स्वीकर्तुं शक्यते। मनुजपशुभिः निर्मर्यादैः, निर्मर्यादा नाम हु डु नाट् नो द लिमिट्स् इति अर्थः। मर्यादा इति पदस्य लिमिट् इति अर्थः। अत्र युद्धमर्यादां ये न जानन्ति, युद्धमर्यादाम् अजानद्भिः इति अर्थः। निर्मर्यादैः युद्धे किं करणीयं न करणीयम् इति न जानन्ति, अशस्त्रपाणिं मारयन्ति, तद् युद्धधर्मं नास्ति, अतः युद्धधर्मम् अजानद्भिः इति स्वीकरणं। निर्मर्यादैः उदायुधैः, उत् आयुधं नाम स्वीकृतम् आयुधम्, उत् नाम अप्लिफ्टिङ्ग्, गृहीतं शस्त्रं यैः तादृशैः उदायुधैः भवद्भिः युष्माभिः यैः इदं गुरुपातकम् एतादृशं घोरं कर्म एतादृशं पापं कर्म कृतम् अनुमतं दृष्टं वा, कैश्चित् दृष्टं कैश्चित् अनुमतं कैश्चित् कृतं केनचित् कृतं नो चेत् केनचित् कृतं केनचित् अनुमतं केनचित् दृष्टम् आसीत् एतैः पुनः योजयति नरकरिपुना सार्धं नरकरिपुः इति कृष्णः एवं कृष्णेन सार्धं तेषां स भीमकिरीटिनां भीमकिरीटी किरीटिः नाम अर्जुनः भीम अर्जुनाभ्यां सह विद्यमानानां सर्वेषां राज्ञां तेषाम् असृङ् मेदो मांसैः असृङ् इत्युक्ते रक्तम् इति अर्थः रक्तं मेदः इत्युक्ते फ्लेश् इति अर्थः मांसं जानन्ति तेषां रक्तमेधमांसैः अहं दिशां बलिं करोमि दिशां बलिं दिग्भ्यः बलिदानम् अम तद् एकविधपूजाकार्यं भवति इत्युक्ते सर्वान् मारयित्वा अहं दिव्यः बलिरूपेण ददामि सर्वान् मारयामि इत्येव आशयः कारणम् एते सर्वे अपि मनुजपशवः सन्ति मनुष्यरूपेण विद्यमानाः मृगाः सन्ति निर्मर्यादाः सन्ति युद्धमर्यादां न जानन्ति उदायुधाः सन्ति आयुधं गृहीतमस्ति सर्वैः तथापि एतैः एतादृशं महत् पातकं यैः कृतं यैः एतादृशं पापं कर्म कृतं यैः अनुमतं यैः वृथा दृष्टम् आसीत् किमपि अकृत्वा केवलं दृष्टम् आसीत् तैः यैः तेषाम् इति अत्र अन्वयः यैः एतादृशं गुरुपातकं कृतं तेषाम् असृङ्मेधो मांसैः तेषां भीम अर्जुनसहिता सहितं विद्यमानानाम् असृङ्मेधो मांसैः रक्तमेध मांसादिभिः अहं दिशां बलिं करोमि दिग्भ्यः बलिरूपेण अहं ददामि नरकरिपुना सार्धं विद्यमानानां तेषाम् इति स्वीकरणीयं कृष्णेन सह ये सन्ति तेषाम् इति नरकरिपुः नाम नरकासुरस्य रिपुः नरकरिपुः इति कृष्णः कृष्णेन सार्धं विद्यमानानां सभीमकिरीटिनां तेषां भीम अर्जुनसहिताभ्यां सहितानां तेषाम् असृङ्मेधो मांसैः अयम् अहम् अश्वत्थामा दिशां बलिं करोमि व्याख्यां पठामः निर्मर्यादैः निर्गता मर्यादा यैः येभ्यः तैः मर्यादारहितैः यैः जनैः मनुजपशुभिः नीचपुरुषैः उदायुधैः ऊर्ध्वं कृतानि आयुधानि यैः तैः उद्यतशस्त्रैः भवद्भिः युष्माभिः इदम् एतत् गुरुपातकं महत् अघं महदघम् अघम् इत्युक्ते पापम् इति अर्थः महदघं कृतं विहितम् अनुमतं समर्थितं दृष्टम् अवलोकितं वा नरकरिपुना नरकस्य रिपुः तेन माधवेन सार्धं समं स भीमकिरीटिनां भीमसेना भीमसेन अर्जुनसहितानां तेषां पापात्मनाम् असृङ्मेधो मांसैः असृङ्गि रुधिराणि मेधांसि वसाः मांसानि पललानि च तैः अयम् एषः अहम् अश्वत्थामा दिशां काष्ठानां बलिं दिग्देवता बलिम् उपहारं करोमि विदधामि अत्र न कश्चित् अलङ्कारः वर्तते अतः अग्रे गन्तुं शक्नुमः कृपाचार्यः कृपः वत्स किं न सम्भाव्यते भारद्वाजतुल्ये बाहुशालिनी दिव्यास्त्रग्रामकोविदे भवति किं न सम्भाव्यते किं न सम्भाव्यते किं न शक्यते इति अर्थे पृच्छति किं न शक्यते भारद्वाजतुल्ये बाहुशालिनी दिव्यास्त्रग्रामकोविदे भवति इति सप्तमी विभक्त्यन्तं पदं पदचतुष्टयं कं द्वे त्रीणि चत्वारि च पदचतुष्टयं दृश्यते तत्र सतिसप्तमी अतः भवान् कीदृशः अस्ति इत्युक्ते भारद्वाजतुल्यः भारद्वाजः नाम द्रोणाचार्यः द्रोणाचार्येण तुल्यः अस्ति द्रोणाचार्ये सदृशः अस्ति भवान् तादृशे भवति विद्यमाने सति बाहुशालिनी नाम बाहुबलेन प्रकाशमानः अस्ति भवान् बाहुबलशाली अस्ति तः बाहुशालिन् इत्यत्र सप्तमीभक्तिः बाहुशालिनी भवति विद्यमाने सति दिव्यास्त्रग्रामकोविदे सति दिव्यानाम् अस्त्राणां ग्रामः ग्रामः इत्युक्ते समूहः इति अर्थः दिव्यास्त्राणां दिव्यास्त्राणां समूहः तस्य प्रयोगे भवान् कोविदः अस्ति कोविदः नाम निपुणः अस्ति पण्डितः अस्ति दिव्यास्त्राणां प्रयोगे दिव्यास्त्रसमूहानां प्रयोगे निपुणः अस्ति तादृशे भवति विद्यमाने सति एवं भवान् तादृशः दिव्यास्त्राणां प्रयोगे यथा भवान् निपुणः अस्ति भवान् बाहुशाली अस्ति भारद्वाजतुल्यः अपि वर्तते एवं विद्यमानः भवान् किं न सम्भाव्यते किं कर्तुं न शक्यते इति पृच्छति किं न शक्यते इत्युक्ते दिशां बलिं करोमि इति पूर्वम् उच्यते किल तद् न शक्यते किं निश्चयेन शक्यते एव इति अर्थे कृपाचार्यः वदति अश्वत्थाम भो भो पाण्डव मत्स्य सोम 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 सोमक मागधाद्याः क्षत्रिय अपसदाः अत्र पाण्डव मत्स्य सोमक माघधेयाः इति भवेत् माघधेयाः क्षत्रिय अपसदाः माघधेयः मगधराजानः इति पाण्डव मत्स्य सोम मगधराजानः हे क्षत्रिय सर्वेषां सम्बोधनम् अत्र सम्बोधनं बहुवचनं क्षत्रिय अपसदाः अपसदः नाम नीचः अधमः इत्यर्थः क्षत्रियेषु अधमः अस्ति सर्वः अपि इति सर्वे अपि क्षत्रिय अधमाः सन्ति क्षत्रियेषु नीचाः सन्ति इति सर्वान् सर्वेभ्यः कुप्यति अश्वत्थाम श्लोकः पितुर्मूर्ध्नि स्पृष्टे ज्वलद् अनल भास्वत् परशुना कृतं यद् रामेण श्रुतिम् उपगतं तन्न भवतां किम् अद्य अश्वत्थामा तद् अरिरुधिर आसार विघसं न कर्म क्रोधान्धः प्रभवति विधातुं रणमुखे यद् रामेण अत्र रामेण इति परशुरामेण इति स्वीकरणीयं परशुरामेण यत् कृतं तत् भवतां श्रुतिपथं न आगतं किम् इति पृच्छति परशुरामेण किं कृतम् इत्युक्ते परशुरामस्य पिता जमदग्निः इति तस्य मूर्धानं स्पृष्टवान् अस्ति कश्चित् क्षत्रियराजः कार्तवीर्यः इति मन्ये सः कार्तवीर्यः परशुरामस्य पितुः मूर्ध्नि स्पृष्टवान् सः इति कारणात् परशुरामेण यत् कृतं परशुरामः तु किं कृतवान् सर्वेषां क्षत्रियाणां मारणं कृतवान् तादृशं यत् परशुरामेण कृतं तद् अश्वत्थामा अहं न करोमि किम् इति पृच्छति यत् रामेण कृतं भवतः श्रुतिपथं भवतः स्मरणे भवतां स्मरणे न आगतं किं तादृशं कार्यं अश्वत्थामापि कर्तुं शक्नोति इति भवन्तः न चिन्तयन्ति किम् इति पृच्छति पितुः मूर्ध्नि पितुः नाम अत्र परशुरामस्य पितुः जमदग्नेः मूर्ध्नि शिरसि स्पृष्टे सति यदा स्पर्शनं कृतं यदा स्पृष्टवान् कार्तवीर्यार्जुनः तदा स्पृष्टे इति सप्तमी व्यक्तिः सति सप्तमी स्पृष्टे सति तदा किं कृतं रामेण परशुरामेण ज्वलद् अनल भास्वत् परशुना यद् रामेण कृतं ज्वलत् अनल नाम भासमानः अस्ति अग्निवत् प्रकाशमानः अस्ति तस्य परशुः तेन परशुना तेन आयुधेन परशुरामस्य आयुधमस्ति परशुः इति, तेन परशुना तेन आयुधेन यद् रामेण कृतं, किं कृतवान् परशुरामः, सर्वान् क्षत्रियान् मारितवान् परशुना, अतः रामेण यत् कार्यं कृतं, परशुरामेण यत् कार्यं कृतं तत् भवतां श्रुतिं न उपगतं किं, तद् भवतां सर्वेषां श्रुतिं नाम कर्णं न उपगतं न प्राप्तं किम्, परशुरामेण यत् कार्यं कृतं तत् भवतां कर्णगोचरं न प्राप्तं किं, न आगतं किं, नाम तद् स्मरणेन आगतं किम् इति पृच्छति. अद्य अश्वत्थामा अहं कीदृशः अश्वत्थामा, क्रोधान्धः, क्रोधेन अन्धः अस्ति इदानीम् अश्वत्थामा, तादृशः अश्वत्थामा अरिरुधिर आसार विघसं, विघसम् इत्युक्ते पितृतर्पणम् इति अर्थः. अरिरुधिर शत्रु रक्त, शत्रूणां रक्तेन वर्षितं तर्पणं, शत्रूणां रक्तेन अहं तर्पणं करोमि इति वदति. सो तत् अरिरुधिर आसार विघसं कर्म, कर्म इत्यस्य विशेषणं तत् कर्म. किं कर्म? एतादृशं पितृतर्पणरूपं कर्म. पितृतर्पणं कथं क्रियते? अरिरुधिरेण, अरिरुधिरवर्षणेन, शत्रूणां रक्तं रक्तवर्षणरूपतर्पणेन तत् कर्म. रणमुखे अस्मिन् युद्धक्षेत्रे विधातुं न प्रभवति किम् इति पृच्छति. विधातुं निश्चयेन प्रभवति एव, निश्चयं कर्तुं शक्नोति इति अर्थः. यथा परशुरामेण प्रतिक्रियां परशुरामेण प्रतिक्रिया कृता तथा अश्वत्थामापि प्रतिकर्तुं शक्यः एव. क्रोधयुक्तम् अश्वत्थाम्नः वचनम् अस्ति. अरिरुधिर आसार विघसम् इति, शत्रूणां रुधिरे रुधिरवर्षणेन विघसं, पितृतर्पणं कर्तुम् अयम् अश्वत्थामा न प्रभवति किं, समर्थः न अस्ति किम्, अपि तु समर्थः एव, कर्तुं शक्नोति एव. व्याख्यां पठामः. पितुः तातस्य मूर्ध्नि शिरसि स्पृष्टे स्पर्शं कुर्वति ज्वलत् अनलभास्वत् परशुना, ज्वलतः दहतः अनलस्य पावकस्य इव भास्वान् दीप्यमान् परशुः कुठारः यस्य सः तेन रामेण परशुरामेण यत् कर्म एकविंशतिवारं निश्चत्रियत्वं कृतं विहितं तत् तथाविधं भवतां युष्माकं सर्वेषां श्रुतिं कर्णपथं न उपगतं न प्राप्तं क्रोधान्तः विचारशून्यः अश्वत्थामा अहम् अद्य सम्प्रति रणमुखे रणाङ्गणे अरिरुधिर आसारविघसम् अरीणां शत्रूणां रुधिरस्य रक्तस्य आसारः निरन्तरवर्षणम् एव विघसः पितृतर्पणरूपं कर्म विधातुं कर्तुं न प्रभवति किं न समर्थः भवति किम्. अत्र ज्वलत् अनलभास्वत् परशुना इति अत्र लुप्त उपमा अलङ्कारः. अग्रे गच्छामः. सूतमुद्दिश्य, सूत गच्छत्वं सर्वोपकरणैः साङ्ग्रामिकैः सर्वायुधैः उपेतं महाआहवलक्षणं नाम अस्मत्स्यन्दनम् उपनय. सूतं प्रति वदति त्वं गच्छ, भवान् गच्छतु. गत्वा किं करोतु? मत्स्यन्दनम् उपनय. मम स्यन्दनं नाम रथः, मम रथम् आनयतु इति. कीदृशं रथं, कीदृशं स्यन्दनम् इत्युक्ते महा आहवलक्षणम्. आहव इत्युक्ते युद्धम्. महा आहव नाम भयङ्करयुद्धम्, एकं महत् युद्धं. युद्धस्य लक्षणं सर्वं यस्मिन् रथे अस्ति तादृशं रथम् इति अर्थः. तादृशं रथम् आनयतु, युद्धलक्षणसहितानि सहितम् अस्ति स्यन्दनम्, इति महाआहव एतत् अन्वर्थनाम इत्यपि वक्तुं शक्यते अथवा महाआहवलक्षणम् इति तस्य स्यन्दनस्य नाम अन्वर्थनाम अस्ति तद् महाआहवलक्षणं स्यन्दनम् उपनय पुनः कीदृशं स्यन्दनम् इत्युक्ते उपेतम् उपेतं नाम युक्तम् इति कैः युक्तम् इत्युक्ते सर्वोपकरणैः साङ्ग्रामिकैः सर्व आयुधैः उपेतं महाआहवलक्षणं नाम अस्मत्य स्यन्दनम् उपनय साङ्ग्रामिकैः सङ्ग्राम इत्युक्ते युद्धं तयुद्धसम्बन्धैः सर्व उपकरणैः सर्वाणि अपि युद्धसम्बन्ध युद्धार्थं यानि उपकरणानि आवश्यकानि तानि सर्वाणि अपि तस्मिन् स्यन्दने सन्ति इति तादृशं स्यन्दनम् अतः साङ्ग्रामिकैः युद्धसम्बन्धैः सर्व उपकरणैः सर्व आयुधैः सर्वाणि उपकरणानि सन्ति सर्वाणि शस्त्राणि आयुधानि अपि सन्ति तस्मिन् रथे तादृशं महाआहवलक्षणं महायुद्धस्य लक्षणं लक्षण उपेतं स्यन्दनं मम स्यन्दनम् उपनय सूतः यथा आज्ञापयति कुमारः इति निष्क्रान्तः कृपः वत्स अवश्यप्रतिकर्तव्ये अस्मिन् दारुणे निकाराग्नौ सर्वेषाम् अस्माकं को अन्यः त्वाम् अन्तरेण शक्तः प्रतिकर्तुं किन्तु सर्वेषाम् अस्माकं कः अन्यः त्वाम् अन्तरेण शक्तः प्रतिकर्तुम् अस्यां स्थितौ प्रतिकर्तुं प्रतिविधानं कर्तुं प्रतिविधातुं नाम कौण्टराक्ट् कर्तुं कः शक्तः त्वाम् अन्तरेण भवन्तं विहाय त्वाम् अन्तरेण भवन्तं विहाय कः शक्तः कः शक्नोति अस्मिन् सन्दर्भे प्रतिकर्म विधातुं कः वा शक्नोति भवान् एव शक्नोति अवश्यप्रतिकर्तव्ये अस्मिन् दारुणे इदानीं प्रतिकर्तव्यता तु प्रतिकर्तव्यतायाः आवश्यकता अस्ति इदानीं कारणम् एतादृशं भयङ्करं कर्म जातमस्ति तस्य प्रतिक्रिया तु विधातव्या अस्ति अतः अवश्यप्रतिकर्तव्ये अस्मिन् दारुणे भयङ्करे निकाराग्नौ निकार नाम कार्यम् अतः अपमानकरं कार्यं तदेव अग्निः अस्ति निकाराग्नौ अपमानकरकार्यरूप अस्मिन् अग्नौ सर्वेषाम् अस्माकं सर्वेषां कः अन्यः त्वाम् अन्तरेण शक्तः प्रतिकर्तुं भवन्तम् अन्तरेण विहाय भवन्तं विना अत्र कोऽपि समर्थः न स्यात् प्रतिकर्तुं स भवानेव प्रतिकर्तुं समर्थः अस्ति किन्तु इति अत्र एकं पास् ददाति किम् अतः परम् इतोपि किम् आवश्यकं किमर्थं किन्तु इति वदति इति अश्वत्थाम्नः प्रश्नः कृपः सैनापत्ये अभिषिच्य भवन्तम् इच्छामि समरभुवम् अवतारयितुं सैनापत्ये अभिषिच्य भवन्तम् इच्छामि समरभुवम् अवतारयितुं भवन्तं सैनापत्ये अभिषिच्य भवन्तं त्वाम् अश्वत्थामानं सैनापत्ये अभिषिच्य सेनापतिस्थाने अभिषेकं प्रापय्य अभिषेकं कारयित्वा समरभुवम् अवतारयितुम् इच्छामि युद्धक्षेत्रं प्रापयितुम् इच्छामि युद्धक्षेत्रे अहं भवन्तम् अवतारयितुम् इच्छामि कथम् अवतारयितुम् इच्छामि सेनापतिरूपेण अहं भवन्तं युद्धक्षेत्रे अवतारयितुम् इच्छामि अवतारयति इति अत्र निच् प्रत्ययः अश्वत्थाम मातुल परतन्त्रम् इदम् अकिञ्चित् करं च इदं यत् भवता उच्यते सेनापतिरूपेण अवतारयितुम् इच्छामि इति तत् सेनापतित्वम् इति इदं परतन्त्रम् अस्ति मम हस्ते नास्ति दुर्योधनस्य हस्ते अस्ति दुर्योधनस्य एव अधिकारः अस्ति कः सेनापतिः इति निर्णेतुम् अतः तत् परतन्त्रम् अस्ति मम कार्यं नास्ति तत् परतन्त्रम् अस्ति अकिञ्चित् करमपि नाम अकिञ्चित् करं नाम व्यर्थं निष्प्रयोजनम् इति अर्थः तद् निष्प्रयोजनमपि अस्ति सेनापति इस् डिपेण्डेण्ट् आन् अदर्स् मम हस्ते किमपि नास्ति अतः एतत् परतन्त्रम् अकिञ्चित्करं च निष्प्रयोजनं च एतत् ERC भवति ससन्दर्भं व्याख्यात इति प्रश्नार्थम् इदं वाक्यं भवितुमर्हति कृपः वत्स न खलु परतन्त्रं न अकिञ्चित् करं च। एतदपि ससन्दर्भव्याख्याने भवितुम् अर्हति। करणं न खलु परतन्त्रं न अकिञ्चित् करम् इति नकारसहितं विद्यमानं तु कृपाचार्येण प्रयुक्तमस्ति, नकाररहितं तु अश्वत्थाम्ना प्रयुक्तमस्ति। अतः कसूक्ष्मः भेदः अस्ति, द्वयोपि इयासि रूपेण व्याख्याने भवितुमर्हति प्रश्नपत्रेषु। पश्य तद् एतत् परतन्त्रमपि न अकिञ्चित् करमपि नास्ति इति वदति। यत् परतन्त्रमस्ति अकिञ्चित् करं निष्प्रयोजनम् अस्ति इति अश्वत्थाम्ना यद् उच्यते तद् तथा न इति उक्त्वा तद् समर्थयति श्लोकेन। भवेद् अभीष्मम् अद्रोणं धार्तराष्ट्रबलं कथं यदि तत्तुल्यकक्षो कक्षः अत्र भवान् धुरी न युज्यते। यदि भवान् कीदृशः भवान् तत्तुल्यकक्षः, तत्तुल्य तेन तुल्यकक्षः नाम तेन अथवा तैः तुल्यः अस्ति अश्वत्थामा अपि, नाम अन्यैः वीरैः तुल्यः अस्ति अश्वत्थामा। भीष्मः द्रोणः इति ये वीराः सन्ति तेषां बले तैः तुल्यः, तत्तुल्यः तुल्यकक्षः, कक्षः इत्यत्र सेम् केटगिरी इत्यर्थः, समान कक्षायां यः अस्ति, समान स्थित्यां यः अस्ति, नाम समानवीरत्वं यस्य अस्ति इत्यर्थः। अतः तैः तुल्यवीरः कक्षः अस्ति भवान्, तादृशः भवान् यदि धुरी न युज्यते, धुरी नाम अग्रभागः इति, न अत्र सेनापतिपदव्यां यदि न युज्यते, यदि सेनापति रूपं पदवी सेनापतिरूपस्थाने यदि न तिष्ठति तर्हि धार्तराष्ट्रबलं कथं भवेत्, धृतराष्ट्रस्य इदं बलम् इयं सेना कथं वा भवति इति पृच्छति। का कीदृशं धार्तराष्ट्रबलम् इत्युक्ते अभीष्मम् अद्रोणम्। इदानीं भीष्मः अपि मृतः, द्रोणाचार्यः अपि मृतः, अतः अभीष्मम् अद्रोणम् इदं धृतराष्ट्रस्य इदं बलं, धृतराष्ट्रस्य इयं सेना इदानीं कथमस्ति इत्युक्ते अभीष्मम् अद्रोणम् अस्ति, भीष्मरहितसेना अस्ति, द्रोणरहितसेना अस्ति। एतादृशायाः सेनायाः सेनापतिरूपेण भारं धुरी यदि न युज्यते, भारं वोढुं यदि भवान् न युज्यते, भवान् न नियुज्यते, तर्हि तत् बलं सा सेना कथं वा भवति इति पृच्छति सः। अतः भवता अवश्यं सेनापतिरूपेण भवितव्यम् इति अर्थः, भवता अवश्यं भवितव्यं, नो चेत् इदं धृतराष्ट्रस्य बलं सम्यक् न भवति इति अर्थः। यदि तत्तुल्यकक्षः भवान् अत्र नाम अस्मिन् युद्धक्षेत्रे, तत्तुल्यकक्षः नाम समानवीरत्वेन विद्यमानः भवान् धुरी न युज्यते, सेनापतिस्थाने यदि न नियुज्यते, तर्हि अभीष्मम् अद्रोणं धार्तराष्ट्रबलं कथं भवेत्। भीष्मरहितं द्रोणरहितम् इदं धार्तराष्ट्र धृतराष्ट्रस्य इदं बलं कथं भवति इति प्रश्नः, सम्यक् न भवति इति अर्थः। कथं भवेत् इत्यत्र कथं युद्धयोग्यं भवेत् इदं सैन्यं, भीष्मरहितं द्रोणरहितम् इदं सैन्यं भवान् सेनापतिरूपेण न भवति चेत् युद्धयोग्यमेव न भवति इति अर्थः। एतत् बलं युद्धयोग्यमेव, युद्धाय समर्थं न भवति इदं बलं यदि भवानपि सेनापतिस्थाने न तिष्ठति चेत् इत्यर्थः। व्याख्यां पठामः। यदि चेत् अत्र अस्मिन् विषये तत्तुल्यकक्ष्यः, कक्ष्यः इति कक्षे योग्यः, कक्ष्यः इति अर्थः, अतः कक्ष्यः इति अपि भवितुम् अर्हति, कक्षः इत्यपि शुद्धमेव, इतोपि उचितं रूपं चेत् तत्तुल्यकक्षः इत्येव, कुत्रचित् कक्ष्यः इत्यपि दृश्यते, कक्षः इति इतोपि समीचीनं भवति। तत्तुल्यकक्षः तयोः भीष्मद्रोण्योः तुल्याः, समा कक्षा श्रेणी यस्य तादृशः नाम समानकक्षायां विद्यमानः सेम् स्टाण्डर्ड् इति अर्थः भीष्मद्रोणाभ्यां सह समानकक्षायां विद्यमानः अश्वत्थामा इति तादृशः भवान् अश्वत्थामा धुरी अग्रे सेनाधिपतौ न युज्यते नैव नियुज्यते तदा अभीष्मं भीष्मेन विना अद्रोणं द्रोणेन विना च धार्तराष्ट्रबलं कौरवबलं बलं सैन्यं कथं भवेत् कथं स्यात् अत्र सैन्यं केवलं कथं भवेत् कथं स्यात् इति अत्र कथं युद्धयोग्यं स्यात् इति योजनीयं योजयति चेत् सम्यक् भवति कथं युद्धयोग्यं स्यात् इति अग्रे कृतपरिकरस्य भवादृशस्य त्रैलोक्यम् अपि न क्षमं परिपन्थी भवितुं किं पुनर्युधिष्ठिरबलं तद् एवं मन्ये परिकल्पित अभिषेक उपकरणः कौरवराजः न चिरात् त्वाम् एव अभ्युदीक्षमानः तिष्ठति इति त्रैलोक्यमपि परिपन्थी भवितुं न क्षमम् भवादृशस्य त्रैलोक्यं त्रयः लोकाः अपि परिपन्थी भवितुं न समर्थाः सन्ति परिपन्थी इत्युक्ते शत्रुः एवं त्रिषु लोकेषु विद्यमानाः सर्वे अपि शत्रुरूपेण भवितुं न समर्थाः सन्ति न क्षमं त्रैलोक्यं परिपन्थी भवितुं न क्षमं कस्य भवादृशस्य भवादृशस्य वीरस्य कीदृशस्य भवादृशस्य कृतपरिकरस्य नाम कृतसङ्कल्पस्य सङ्कल्पितस्य दीक्षा स्वीकृतस्य इति अर्थः मङ्गलसूत्रबन्धनेन काचित् दीक्षा स्वीक्रियते दीक्षा एडुत्तुकरदि इति उच्यते किल दीक्षा स्वीक्रियते तादृशस्य सङ्कल्पितस्य भवादृशस्य भवत्सदृशस्य वीरस्य पुरतः शत्रुरूपेण भवितुं त्रैलोक्यमपि न क्षमम् त्रैलोक्यमपि न त्रिलोकस्य सामर्थ्यमपि न सामर्थ्यमपि नास्ति त्रयाणां लोकानामपि सामर्थ्यं नास्ति किं पुनः युधिष्ठिरबलस्य युधिष्ठिरबलविषये किं वक्तव्यं तेषामपि सामर्थ्यं नास्ति इति अर्थः तद् एवं मन्ये अहम् एवं चिन्तयामि किं चिन्तयामि कौरवराजः दुर्योधनः नचिरात् त्वाम् एव अभ्युदीक्षमानः तिष्ठति इति अहं मन्ये त्वाम् एव भवन्तम् एव अभ्युदीक्षमानः नाम प्रतीक्षमानः भवतः प्रतीक्षायाम् अस्ति दुर्योधनः इति अहं चिन्तयामि कीदृशः दुर्योधनः परिकल्पित अभिषेक उपकरणः कौरवराजः दुर्योधनः इति दुर्योधनस्य विशेषः परिकल्पित अभिषेक उपकरणः सेनापतिरूपेण अभिषेकं भवतः अभिषेकं कारयितुं परिकल्पित अभिषेक उपकरणः अस्ति दुर्योधनः नाम सज्जीकृतानि अभिषेकसम्बन्ध उपकरणानि पट्टाभिषेकं नाम सेनापतिस्थाने भवन्तम् अभिषेचयितुं यानि उपकरणानि आवश्यकानि तानि सज्जीकृतानि सन्ति दुर्योधनेन तादृशः दुर्योधनः तादृशः कौरवराजः येन परिकल्पितानि अभिषेक उपकरणानि तेन सा तादृशः कौरवराजः त्वामेव प्रतीक्षमानः तिष्ठति त्वाम् इदानीं प्रतीक्षमानः नाम वेटिङ्ग् इति अर्थः एक्स्पेक्टिङ्ग् इति अर्थः सो भवतः प्रतीक्षायां तिष्ठति इति अहं मन्ये इति अहं चिन्तयामि अश्वत्थामा यदि एवं त्वरते मे परिभव अनलदह्यमानम् इदं चेतः तत्प्रतीकार जल अवगाहनाय यदि एवं यदि भवान् एवं चिन्तयति चेत् नाम अहमेव सेनापतिः मया एव सेनापतिः भवितव्यम् इति मया सेनापतिना भवितव्यम् इति भवान् यदि चिन्तयति चेत् तर्हि मे चेतः त्वरते इत्येव अन्वयः मम चेतः मम मनः त्वरते त्वरते नाम शीघ्रं भवितव्यम् इति इच्छति मम मनः अपि, अहमपि इच्छामि सेनापतिपदवीं प्राप्तुम् इति अत्र बेसिक् अर्थः. मे मनः मे चेतः त्वरते, किमर्थं त्वरते? तत् प्रतीकारजल अवगाहनाय. अवगाहनं नाम मञ्जनं, निमञ्जनं, जले जलस्य निमञ्जनाय मम मनः मम चेतः त्वरते. कीदृशं जलम् इत्युक्ते प्रतीकारजल अवगाहनाय. प्रतीकारं नाम प्रतिकर्म विधातुं, नाम रिवेञ्ज् कर्तुं. तत् मम पितुः मरणार्थं यत् प्रतीकारः करणीयः अस्ति, तत् प्रतीकारं कर्तुं प्रतीकारम् एव जलमस्ति. तद् तादृशे जले निमज्जनार्थम्, अवगाहनार्थं, स्नानार्थं मम मनः त्वरते. मम मनः इदानीं शीघ्रं गच्छति इति. कीदृशं मनः इत्युक्ते परिभव अनल दह्यमानम् इदं चेतः. परिभवं नाम अवमानम्, अपमानम् एव अग्निः. अपमानरूप अग्निना, अनलः नाम अग्निः, अपमानरूप अग्निना दह्यमानम् इदं चेतः. दग्धं चेतः इति न वदति, दह्यमानम् इति शानच् प्रत्ययः, नाम इतोपि दहति मम चेतः इति अर्थः. इतोपि दहत् अस्ति मम चेतः, अतः दह्यमानम् इदं चेतः. प्रतीकारम् इति जले अवगाहयितुं त्वरते, इच्छति. तद् अहं गत्वा तात वध विषन्नमानसं कुरुपतिं सैनापत्य स्वयं ग्रहण प्रणय समाश्वासनया मन्दसन्तापं करोमि. तद् अहं गत्वा, तस्मात् अहं गत्वा कुरुपतिं मन्दसन्तापं करोमि. कुरुपतिः दुर्योधनम् अहं मन्दसन्तापं, तस्य दुर्योधनस्य सन्तापम् अहं न्यूनीकरोमि, अहं सन्तापस्य न्यूनं करोमि इति. कथं करोमि? सैनापत्य स्वयं ग्रहण प्रणय समाश्वासनया. कदाचित् दुर्योधनः स्वयमेव सेनापतिः भवितुं निश्चयं कुर्यात्, तः सैनापत्य स्वयं ग्रहण, स्वयमेव सैनापत्यं, सेनापतित्वं ग्रहीतुं प्रणयः निश्चितं भवेत्, निश्चितः भवेत् दुर्योधनः. ततः अहं समाश्वासनया, अहं तादृश तत् निश्चयं यत् क्रियते तद् समाश्वास्य, तस्य आश्वासनम् आश्वासकरणेन तस्य सन्तापम् अहं न्यूनं करोमि, सन्तापं न्यूनीकरोमि इति. कीदृशं कुरुपतिं, कीदृशं दुर्योधनम् इत्युक्ते तात वध विषन्नमानसं. मम पितुः, मम तातस्य वधेन, मम तातस्य मरणेन विषन्नमानसं, दुःखितं. विषन्नः नाम दुःखितः, दुःखितं मानसं, दुःखितं मनः यस्य अस्ति सः दुःखितमानसः भवति, विषन्नमानसः भवति. तादृशं दुर्योधनम् अहं सैनापत्यग्रहण, स्वयमेव सेनापतित्वग्रहण निश्चयः भवति तेन समाश्वासनया, स्वयमेव नाम अत्र एवं, क्षम्यताम्, एवम् अर्थः भवति. कुरुपतिः इदानीं विषन्नमानसः अस्ति, मम पितुः मरणेन कुरुपतिः इदानीं दुःखितः स्यात्. अहं तम् आश्वासयामि. कथम् आश्वासयामि? तस्य सन्तापम् अहं मन्दीकरोमि. कथम् इत्युक्ते सैनापत्य स्वयं ग्रहण प्रणय आश्वासनया. स्वयं नाम स्वयम् अश्वत्थामा स्वयं सेनापतित्वं ग्रहीष्यति इति निश्चयं कृतवान् इति उक्त्या इति समाश्वासनया इति तस्य आश्वासनकरणेन अहमेव, अहम् अश्वत्थामा एव सेनापतिः भूत्वा युद्धं करोमि इति आश्वासनया इति उक्त्वा तेन आश्वासनं कृत्वा आश्वासरूपवचनेन तस्य सन्तापम् अहं मन्दीकरोमि, अहं न्यूनं करोमि इति अर्थः. स्वयम् इति अत्र अश्वत्थाम इति अर्थः. स्वयं सैनापत्य स्वयं ग्रहण इत्युक्ते सेनापति पदवीं स्वयम् अश्वत्थामा गृही गृह्णाति इति प्रणयेन समाश्वास्य, इति प्रीतिकरवचनेन तं समाश्वास्य अहं तस्य सन्तापं मन्दं करोमि इति अर्थः. एवम् इति परिक्रामतः अश्वत्थामा कृपौ द्वौ अपि परिक्रामतः गच्छति. ततः प्रविशतः कर्णदुर्योधनः, इदानीं कर्णः दुर्योधनश्च रङ्गं प्रविशतः.